नमस्कारः अद्य वैयाकरणभूषणसारे षड्विंशः पाठः एप्रिल् मासस्य अष्टादशः दिनाङ्कः एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदे तद्विवर्तते। अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे अन्तिमा कारिका अस्माभिः अध्येतव्या अस्ति। एतावता भावनाविषये एकदेशान्वयस्य अङ्गीकारः कर्तव्यः इत्येतस्मिन् विषये कारिकाद्वयम् अस्माभिः अधीतम्। अविग्रहादतादिस्था यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत् कृतपूर्त्या विशिष्टितः। यथा ग्रामं गतः इत्यादिषु गतः इति कर्तृत्वप्रत्यये कर्तुः प्राधान्यात् भावना अप्रधाना अथवा गुणभूता एव। तथापि ग्रामम् इति कर्मणः अन्वयः भवति। एवमेव कृतपूर्वीकटम् इत्यादिषु कृतं पूर्वं येन सह कृतपूर्वी इति कर्तरर्थे इनि प्रत्यये कटं कृतपूर्वी भावनायाः अप्राधान्येऽपि कट इत्याख्यस्य कर्मस्य अन्वयः भवति। यद्यपि पदार्थः पदार्थे नान्वेति न तु एकदेशेन इति न्यायः अस्ति, तथापि सम्बन्धिशब्दस्वापेक्षः नित्यं सर्वसमस्यते इति न्यायेन यथा देवदत्तस्य गुरुकुलम् इत्यादिषु भवति सविशेषणस्यापि वृत्तिः भवति, एवमत्रापि सापेक्षायाः अपि भावनायाः वृत्तौ अन्वयः एकदेशान्वयः अङ्गीक्रियते। एवं यदि अङ्गीक्रियते तर्हि यथा पञ्चकृत्वः भुङ्क्तेभिः अधीते इत्यादयः इत्यादयः भवन्ति प्रयोगाः, एवं कृदन्तेन योगे अपि भावकृदन्तैर्योगे अपि सकृत्पाकः भिःपाकः इत्यादि प्रयोगाः स्युः इति आपत्तिः प्रदर्शिता, तदा तु इष्टापत्तिः इति कौण्डभट्टेन अङ्गीकृतम्। चत्वर्थाः त्वात् मुन्वत्युः इति चेत् सन्धिः क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयः भवति। यथा द्विर्वचनम् इति पाणिनिनैव प्रयुज्यते, भिः प्रयोगः द्विर्वचनम् इति भाष्यकारेण उत्पत्तिः उच्यते, एवम् अन्यत्रापि प्रयोगाः सन्ति सकृत्स्मरणं सकृच्छ्रवणम् इत्यादि। अतः कृत्वोर्थानामपि भावकदन्तैः सह अन्वयः भवति, यत्र एकदेशेन साध्यक्रियया अन्वयः भवति इति प्रतिपादितम्। ननु सिद्धान्ते बोधकतारूपा शक्तिः आख्यातशक्तिग्रहवतां बोधाद् आवश्यकी इति धातोरेव भावनामाख्या न आख्यातस्य इति कथं निर्णयः इति आशङ्कां समाधत्ते। अत्र प्रश्नः धात्वर्थः भावना इति एतावता प्रतिपादितं, स च वैयाकरणसिद्धान्तः। किन्तु पदे शक्तिः इति काचित् भवति, सा च बोधकतारूपा। यत् पदं बोधं जनयति तत् शक्तं, स शक्तिः पदपदार्थसम्बन्धः इत्युच्यते। यत्र बोधः भवति तत्र शक्तिः अस्ति। यस्मात् पदात् यादृशः बोधः भवति तादृशः अर्थः तस्मात् पदात् शक्यः इत्युच्यते। इदानीं ये मीमांसकाः आख्यातार्थभावनावादिनः अर्थात् भावना तिङर्थः न तु धात्वर्थः इति वदन्ति, तेषामपि बोधः भवति। अर्थात् पठति इत्यस्य श्रवणेन अथवा पचति इत्यस्य श्रवणेन तदनुकूलव्यापारस्य बोधः भवति, किं प्रत्ययस्य श्रवणेन भावनायाः बोधः भवति इत्यतः आख्यातस्यापि भावनायां शक्तिः स्वीकरणीया। बोधकतारूपा शक्तिस्तु अस्ति आख्यातशक्तिग्रहवतां, ये आख्याते आख्यातस्य भावनायां शक्तिः इति वदन्ति तेषामपि बोधः भवति इत्यतः धातोरेव भावनावाच्या न आख्यातस्य इति कथं निर्णयः। बोधः भवति चेत् शक्तिः अस्ति इत्येव वक्तव्यम्। एवञ्च धातोः यथा भावनायां शक्तिः एवं आख्यातस्यापि भावनायां शक्तिः अस्ति इति अंगीकर्तव्यम् तथा बोधः भवति इत्यतः अतः कथमत्र आख्यातस्य भावनायां शक्तिः न इति निराकर्तुं कथं शक्यते इति आक्षेपः तत्र वदति भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनं साधुत्वं तदभावेऽपि बोधो नेह निवार्यते साधुत्व अभावेऽपि बोधः न निवार्यते ये असाधवशब्दाः अथवा अपभ्रंशाः तैरपि बोधः भवति बोधः भवति इत्येतावन्मात्रेण तस्य साधुत्वं न सम्भवति यथा अपभ्रंशाः अथवा अपशब्दाः भवन्ति गौः इति शुद्धं रूपं गावी इति कश्चित् प्रयुङ्क्ते तस्मादपि गोपदार्थस्य बोधः भवितुम् अर्हति तेन कारणेन गावी इत्येषः साधुशब्दः इति वक्तुं न शक्यते इति वैयाकरणानां मतम् तत् पुनः सः अत्र वदति भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनं साधुत्वं तदभावे अपि इह बोधः न निवार्यते कोऽर्थः भेद्यं नाम विशेष्यं भेदकं नाम विशेषणम् विशेषणविशेष्यभावः तयोर्यः सम्बन्धः स एव उपाधिः तस्य यो भेदः तन्निबन्धनं साधुत्वम् अर्थात् यदा घटः इति पदमस्ति तत्र घटपदार्थः भेद्यः सो भेद्य मीन्स् दट् विच् इस् डिस्टिङ्ग्विश्ड् भेदकम् इस् दट् विच् डिस्टिङ्ग्विशस् फार् एक्साम्पल् इफ् यु हेव् संथिङ्ग् प्रयोग लैक् नीलं वस्त्रम् सो वस्त्रमस्ति बहुविधानि वस्त्राणि सन्ति यु नीड् टु डिस्टिङ्ग्विश् सम् पर्टिक्युलर् वस्त्र फ्रम् एव्रिथिङ्ग् एल्स् सो यु आड् अ विशेषण काल्ड् नील सो नीलम् इत्यनेन किं क्रियते तद्युक्तं वस्त्रम् अन्यैः वस्त्रैः पृथक् क्रियते सो द अट्रिब्यूट् आफ् नील हेल्प्स् अस् इन् सेपरेटिङ्ग् अ पर्टिक्युलर् वस्त्र फ्रम् आल् अदर् वस्त्र Yes, so that is why the Visheshana is always called Bhedaka, that which separates, that which identifies. Yad vastu prithakriyate yatha vastram, tattu bhedyam ityuchyate. Yada ghataha ityuchyate, tatra ghatadi bhedyam, ghatapadarthaha bhedyaha. Kim bhedakam, what is it that separates ghata from all other objects? Is ghatatva, the property of being a pot. Ghatatva. Pravritti nimittam, so that is what we call the jati. In this case, it is a jati. In other case, it could be guna, it could be kriya, it could be samya. Katra tu pravritti nimittam. Ghatasya pravrittau, ghatapadasya, ghatapadarthasya pravrittau yan nimittam, ghatatvadi tad bhedakam. So, bhedyam bhedakam. So, ghatatva ghatayoho, visheshana visheshya bhavaha. अर्थात् घटत्व विशिष्टः घटः सो अ घट ऐडेन्टिफैड् बै द प्रापर्टी आफ् घटत्व इत्यत्र घटत्वं विशेषणं घटश्च विशेष्यम् अयं यः विशेषणविशेष्यभावः स एव सम्बन्धोपाधिः इत्युच्यते सो दट् सम्बन्ध इट् सेल्फ् इस् द उपाधि ओके इतर व्यावर्तकः मीनिङ्ग् दट् विच् सेपरेट् एव्रिथिङ्ग् एल्स् सो इफ् देर् इस् अ पदार्थ विच् वि हेव् टु काल् घट So the property of ghatatva separates this padartha from all other padarthas. Okay, what makes that padartha unique or identifiable separately is the property of ghatatva. Anything which possesses this property would be separated from all other padarthas. Okay, so samavaya sambandhena ghatatva vishishta ghatasya bodhe upadhi bhedaha ityuchyate ayam sambandhaha बहुविधः भवितुम् अर्हति अत्र घटत्वं घटः इत्येतयोः समवायसम्बन्धः सो दिस् इस् समवायः नित्यसम्बन्धः इति तार्किकाः वदन्ति समवाय इस् अ पर्टिक्युलर् कैण्ड् आफ् सम्बन्ध नित्यसम्बन्ध सम्बन्ध विच् केन् नाट् बि डिस्ट्राय्ड् पञ्चसु पदार्थेषु अयं सम्बन्धः भवति इति तार्किकाः वदन्ति सो देर् इस् द्रव्य गुण jati vyakti avayava avayavi so there are five pairs which they identify in which the sambandha is called samavaya That is, you cannot separate the two components without destroying them. Okay. So, I am samavaya sambandhaha ityuchyate. So, guna guninoha samavayaha, kriya kriyavatam samavayaha, jati vyakti avayava avayavi samanya visheshayo. I think that must be the last one. So, there are five pairs. Say, for example, there is a neela and ghata. You cannot separate the property of neelatva from the ghata. So that blueness is always associated with the dravya. You cannot see a guna separately from the dravya. Similarly, a kriya. Say there is something which is running. You cannot take a kriya separate from the dravya. So the jati vyakti, say ghata and ghatatva. It is separate. So, ghatatva is a jati which is present in all individual ghatas. Whereas the ghata is the vyakti, the individual padartha. But you cannot separate the jati out of a vyakti. Similarly, an avayava and avayavi. So, there are organs and an organism. So, if you take out all avayavas, there is no avayavi. So, you cannot separate it. So, these are the called kind of sambandha called the nitya sambandha or samamaya. Tatra samavaya sambandhena ghatatva vishishta ghatasya bodhe ghatashabdaha sadhuhu. Ghatapadar ghatam ghataha ityasya korthaha ghatapadena kaha kidushaha bodhaha jayate ghatatva vishishtaha ghataha. So the word ghata is sadhu in the sense of an individual ghata identified by the attribute of ghatatva. And these two are related by the samavaya sambandha. So the entire thing is covered by the word ghata. When say the Vyakarana says that you have a word ghata, so all these come associated with it. Tatra visheshana visheshya bhavasya vyatyaye sadhutvam nashyati. Yatha ghata vishishta ghatatva. There is something wrong in the typing. Ghata vishishta ghatatvasya bodhe. So, ghata, the word ghata is sadhu in the sense of a ghata vyakti endowed with the attribute of the ghatatva jati. If you reverse the visheshana vishesha bhava, it is wrong. Tadrishaha bodhaha na bhavati. Visheshana vishesha bhava vishishtaha eva bodhaha angikriyate. So, if you study in other texts or even he Kondabhatta does not deal directly with Shakti, etc. But Sayeva Tahata Dharmavachina Vishishta Shabda Buddhitpavachinam Prati Tadharmavachina Vishishta Vritti Vishishta Jnanam Hetu Ityuchyate. So that Tadharma, the identifying attribute, is also important in understanding a word and its meaning. So the sadhutva of a word always includes the meaning also. Himvadati Ataha Bhedya bhedaka bhedyam nama visheshyam bhedakam nama visheshanam tayoho yaha sambandhaha tasya yo bhedaha tannibandhanam sadhutvam. So the sadhutva of a word includes all this. Yasmin visheshye yadrisha visheshvena visheshanena annite yadrisha anupurvyaha sadhutvam sutrakaradibhiruktam tatra sa shabda sadhuho kim visheshanam kim visheshyam kidrishi anupurvi. So, what Vyakarana does, even though we say it is concerned with the word itself, ityukte yatha padam vayam vadamaha punaha punaha uchyate kim shabda pramanakaha vayakaranaha ityuchyate shabdaha eva pradhanam tathapi tena anyatra vakyavidhiye udaharanam diyate asvaha iti shabdaha asti eshaha shabdaha sadhurva na sadhurva iti prashna asva iti shabdaha ashva ityasti asva dantyah sakarah asti asvaha iti shabdaha sadhurva na sadhurva iti chet ashvavadarthe asadhuhu. If you mean to convey ashva, a horse, then it is not sadhu. The word asva, ashvaha ityarthe asva shabdasya sadhurtvam nasti kintu asvaha navidyate svaha dhanam yasya saha nama nirdhanaha ityarthe asvaha iti shabdaha sadhu. So you cannot determine the sadhutva of a word just by the anupurvi. It is, even though we say व्याकरणेन शब्दानां साधुत्वं निर्णीयते इत्युच्यते तत्र अर्थः न त्यज्यते सर्वथा अर्थस्य त्यागः न शक्यते सो अश्वः इति शब्दः साधुर्वा न साधुर्वा इति चेत् तस्मिन् अर्थे अश्वः हयः इत्यर्थे असाधुः किन्तु निर्धनः इत्यर्थे साधुः अतः तत्र विशेषणं विशेष्यं नाम भेद्यं भेदकं तयोः सम्बन्धः तद्विशिष्टायाः आनुपूर्व्याः एव साधुत्वम् उच्यते यत् सूत्रकाराधिभिः उच्यते तत्रैव साधुत्वं भवति अयमर्थः व्याकरणस्मृतिः शब्दसाधुत्वपरा तत्तु सत्यं वाक्यपदीयेनापि उच्यते साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः शब्दानां साधुत्वं बोधयितुं व्याकरणस्मृतिः प्रवृत्ता तत्रैव अवच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां मीमांसकास्तु किं वदन्ति साधुत्वस्य विषयेण वदन्ति शक्ततावच्छेदकम् इति वदन्ति सो दे आर् कन्सर्न्ड् मोर् वित् द शक्ति दट् इस् वाट् द वर्ड् कन्वेस् देन् द साधुत्व आर् दे से शक्ततावच्छेदकं यस्य बोधकता शक्तिः पूर्वमपि उक्तं सो इफ् अ वर्ड् इस् केपबल् आफ् कन्वेयिङ्ग् दट् मीनिङ्ग् देन् इट् इस् साधु इन् दट् पर्टिक्युलर् मीनिङ्ग् इति वदन्ति किन्तु तत्र शब्दसाधुत्वे अवच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वरतां मीमांसकानाम् अस्माभिः साधुत्वकथने यः धर्मः अवच्छेदकतया स्वीक्रियते अर्थात् घटपदस्य साधुत्वे घटत्वावच्छिन्नः घटः इत्यनेन घटत्वधर्मः अवच्छेदकतया स्वीक्रियते तस्यैव शक्तित्वं वदतां मीमांसकानाम् मीमांसकानां मते तदेव शक्तिः इत्युक्ते घटत्वावच्छिन्नघटे शक्तिः इति वदन्ति मीमांसकानां पुनः शक्तत्वं साधुत्वम् इति एकमेव तेषां दृष्ट्या शक्तत्वं नाम साधुत्वमेव तद्दीप्त्या विचारे साधुत्वनिर्णये एव शक्तिनिर्णयः उच्यते अर्थात् वैयाकरणमते वस्तुतः साधुत्वं नाम किम् पुण्यजनकत्वधर्मविशिष्टं साधुत्वम् औण्डभट्टेनापि अग्रे उच्यते यस्य शब्दस्य प्रयोगेण पुण्यं भवति स शब्दः साधुः इति वैयाकरणानां मतम् मीमांसकमते तु शक्ततावच्छेदकं नाम शक्तिविशिष्टे शब्दे विद्यमानत्वं साधुत्वं सो दट् पद विच् इस् केपबल् आफ् कन्वेयिङ्ग् अ मीनिङ्ग् सो दट् इट् सेल्फ् इस् टेकन् एस् साधुत्व शक्तित्वं साधुत्वम् एकमेव इति तत्र उच्यते कौण्डभट्टेन व्याकरणशास्त्रं यथा साधुत्वनिर्णायकं तथा शक्तिनिर्णायकमपि सो इन् दट् केस् यु हाव् टु एक्सेप्ट् व्याकरण नाट् ओन्ली एस् साधुत्वनिर्णायक बट् आल्सो एस् शक्तिनिर्णायक बिकास् फैनली द अवच्छेदकधर्म इस् द सेम् यदा साधुत्वस्य निर्णये व्याकरणं तैः किमुच्यते साधुत्वं व्याकरणेन उच्यतां नाम शक्तिस्तु अस्त्येव इति ते वदन्ति सो दे आर्ग्यू दट् इवन् दो व्याकरण इस् रिक्वैर्ड् फार् साधुत्व आफ् वर्ड्स् द शक्ति आर् द केपासिटि आफ् अ वर्ड् टु कन्वे अ मीनिङ्ग् केनाट् बि डिटर्मैन्ड् बै व्याकरण सो दे से धातोः अथवा तिङः आख्यातस्य भावनायां शक्तिः अस्ति इति तु अङ्गीकर्तव्यमेव इति वादः तत्तु नाङ्गीक्रियते यथा शब्दस्य साधुत्वं व्याकरणेन निर्णीयते एवं शक्तिः अपि निर्णीयते किमर्थं केवलस्य पदस्य विषये न सो दट् इस् वाट् हि सेड् बिकास् भेद्यभेदकसम्बन्ध द विशेषणविशेष्यभावसम्बन्ध एण्ड् इट्स् भेद इस् आल्सो इन्वाल्व्ड् इन् साधुत्व इट् इस् नाट् ओन्ली अ पर्टिक्युलर् वर्ड् बट् आल्सो द मीनिङ्ग् आफ् द वर्ड् अतः अतिरिक्तशक्तिवादे अपि आख्यातानाम् असाधुता भावनायां स्यादेव अतिरिक्तशक्तिवादे नाम तिङां भावनायाम् अतिरिक्तशक्तिकल्पने धातोः भावनायां शक्तिः इति वदन्तु सो यू अकार्डिङ्ग् टु युर् सिद्धान्त कन्सिडर् द शक्ति आफ् धातु इन् भावना तिङामपि भावनायां शक्तिः अस्ति इति अतिरिक्ता शक्तिः धातुम् अतिरिच्य अन्यत्रापि शक्तिः अङ्गीकर्तव्या इति ते वदन्ति किन्तु तन्मते भावनायाम् असाधुत्वं स्यात् सो इट् विल् लीड् टु द वर्ड् बीङ्ग् असाधु सो इट् इस् नाट् एक्सेप्टबल् साधुत्वम् अर्थनिबन् artha sambandha vishishte shabde eva niyatam. So the sadhutva is not only for the word, it is for the word along with its meaning. Tadeva yatha asva shabdaha ashva ityarthe asadhuhu kinto nirdhanaha ityarthe sadhuhu ityarthe evam sarvatra sadhutva nirnaye arthasyapi avachedakataya svikaraha bhavatyeva artham apekshyaiva shaktihi nirniyate ataha atayeva shaktigraham vyakaranopamanakosha aptavakya vyavaharatascha ityadi vadanti shaktigraha katham vadati bhavati ityatra prathamam sthanam vyakaranasya vyakarana upamanakosha aptavakya vyavaharatascha ityadi asti tatra vyakaranat shaktigraha katham bhavati arthasya sambandha asti chedeva kila bhavati ataha Kaundabhatta argues that Vyakarana is to be taken as Pramana, not just regarding the Shabda, but also the Artha of the Shabda. Ataha, Sarthasya Shabdasya Sadhutva Vishaye Vyakaranam Pramanataya Svikaraniyam. Atra Kashchit Prashnaha, Kosha Shabdasya Talavyahava Murdhanyahava Iti. Upayathapi prayogaha asti. So the word kosha is used with both talavya, the shakara, and the murdhanya shakara. Upayathapi prayogaha drishyate. Upayathapi sadhutva. Anyaha prashnaha. Vyakarana stresses on punya karma. If the meaning is not producing punya karma, how do you define sadhu shabda? Krishnaha coming now that I'm here. Swami Nathan Mahode. Hariyam?
Yes. This is Swami Nathan.
Yes.
Initially, you defined Vyakarana stresses on the one should lead to punya. What is the meaning?
Okay, yeah. Please ask your question.
Yeah. If the meaning of the word does not produce a punya karma, then what happens in the conflict? Would you call it as a sadhu shabda? This is more important.
When we are saying punya, we are not concerned about meaning generating any punya. We keep getting confused. It is not anything related to the meaning being meritorious or good or whatever. I mean, whether the meaning is right or wrong or whatever. It is just the punya here we are talking is only the punya which arises from uttering a sadhu shabda. So it is only the punya due to the shabda and not due to the artha. There could be, see, punya could be due to many things. Punya due to, could be due to a kriya. It could be due to saying something, it could be due to the meaning and so on. We are talking about when Vyakarana says punya janakata vachedakam tvam sadhutvam, it is not about the meaning of a word. That is, what is the meaning of a word? It is, does that word, uttering that word, generate punya? I mean, we believe the Vyakarana Siddhanta is that the using the correct form of a word generates punya. So, correct form of a word means to convey the correct meaning. So, if you are using the word asva to convey the meaning of a poor person, then the word is sadhu and therefore using that word will generate punya. But if you are using the word asva to mean ashva, which many people do, shakara sakara yoga bheda hasti. So if you are using the word asva to convey the meaning of a horse, then it is not sadhu. That is all. So, I mean, we are not concerned with whether the horse is punya janaka or poor man. I mean, that is not the case at all. It is just a word. The word is to be used in that particular meaning, which will generate punya. Tavadeva.
So, in the broad sense, the stress I feel here is, we should always use the words in an unequivocal way. There should be no confusion.
Sorry? In?
No confusion. Unequivocal means you'd always speak so that it is clear. There's no
exactly. That is the thing. You have to use the correct words. That is the thesis of Vyakarana. Whatever you are saying, you have to use the correct words to convey the meaning. So if you are using it wrong, either if the word itself is wrong, or you are using a word in a different meaning, it will not generate punya. Shabdasya prayogaha. Eka shabdaha samyajnataha sushthu prayuktaha. Sushthu navatadeva. Shabdasya anupurvi shuddha bhavet. Tasya arthaha api shuddha bhavet. Tatha sati sa shabda sadhu. Iti vayyakarana namma.
So this is only the definition of sadhu shabda. It's not a requirement. Because there are style of poetry where you read in one way, it makes one sense. If you read the other way, the sense changes. And so
fine.
That's okay. It's not.
That's fine. Yeah. It is certainly. So it's only the usage of words, are you using it correct? I mean, either both those should be correct. That's all. It's only about the usage of the word.
Thank you.
So, evancha, chaturthyarthe tritiya prayogavat, dhatvartha bhavanayam akhyata prayoge, yajnye karmani asadhu shabda prayogat, nandutam vader iti nishedhollanghana prayuktam prayaschittam, darshanantariya vyutpatti matam syadeva, satra dosham pradarshayati, astu dhatva bhavantaha, dhatvartha bhavanayati vadanti vayam akhyata prayati vadamaha, tathaiva bhavatu ityapi na bhavati bhavadvihi angikartavyameva asmakam matam iti kondabhattena pratipadyate kimartham iti chet chaturthyarthe tritiya prayogavat chaturthi asmi chaturthi vibhaktyah arthaha uddeshyam danakriyayaha uddeshyam chaturthya uchyate yadi chaturthi vibhakti sthale tritiya vibhaktihi prayujyate tritiya vibhaktyah kah arthaha karanam ityartha अन्येपि अर्थः भवितुम् अर्हति सामान्यतः करणम् इत्यर्थः कारकस्य चतुर्थी नाम संप्रदानकारकस्य उद्देश्यम् इत्यर्थः एवं तृतीया विभक्तेः प्रयोगे करणम् इत्यर्थः भवति चतुर्थी विभक्तेः अर्थे तृतीया विभक्तेः प्रयोगः साधुर्वा इति चेत् न साधुः दोषाय इति मीमांसकैः अप्यङ्गीक्रियते असाधु प्रयोगः सो इफ् युअर् सेन्स् इस् दट् आफ् चतुर्थी and you use a tritiya vibhakti to convey that sense, it is not acceptable because it is asadhu. Similarly, if your sense is bhavana and you are using the tir pratyaya to convey that bhavana, then it is wrong. Just like using when uddeshya is chaturthyartha, you have to use chaturthi vibhakti to convey uddeshya. If you use tritiya vibhakti to convey uddeshya, your usage is wrong. So that is acceptable to all. So similarly here also, the bhavana is the sense of the dhatu, conveyed by the dhatu. And ting pratyaya conveys the sense of karta or karma. If you are using ting pratyaya to convey the sense of bhavana, it is wrong. Evancha chaturthyarthe tritiya prayogavat. Dhatvartha bhavanayam akhyata prayoge. Dhatvartha bhavanayam vaktavyayam yadi ting pratyaha prayujyate bhavanam vaktum ting pratyaha yadi prayujyate tarhi doshaha yajne karmani asadhu shabda prayogat yatra tohi mimamsakanam chintatu yajna karmanaha vishaye eva ataha yajne karmani asadhu shabda prayogat tatra asadhu shabda prayuktaha iti bhavati तथा सति नानृतं वदेदिति निषेधोल्लङ्घन प्रयुक्तम् याज्ञे कर्मणि नानृतं वदेत् इत्यस्ति इत्युक्ते तत्र अनृतकर्म निवारणीयम् इति तस्य निषेधस्य उल्लङ्घन प्रयुक्तं प्रायश्चित्तम् यत्र निषिद्धं कर्म क्रियते तत्र प्रायश्चित्तम् अपि आचरणीयं भवति अतः तादृशं प्रायश्चित्तं दर्शनान्तरीय व्युत्पत्तिमतां स्यादेव अतः छात्रर्थे भावनायां कर्तृर्थक आख्यातस्य प्रयोगः दोषाय यथा चतुर्थ्यर्थे तृतीयायाः प्रयोगः दोषाय एवं धात्वर्थे आख्यातस्य प्रयोगः दोषाय तथा सति तथा यदि भवन्तः वदन्ति तर्हि तत्र प्रायश्चित्तं कर्तव्यं स्यात् ननु त्वन्मते नानृतम् इति निषेधः कर्त्वर्थः एव न सिद्ध्येत् आख्यातेन कर्तुः उक्तत्वात् श्रुत्या पुरुषार्थतैव स्यात् प्रकरणाधिकत्वतथा तस्य श्रुतिविरोधे बाध्यते इति चेन् न। तत्र मीमांसकाः किं वदन्ति, ननु त्वन्मते, त्वन्मते नाम वैयाकरणानां मते, नानृतं वदेद् इति निषेधः अस्ति। मीमांसकानां किं मतं, नानृतं वदेत् इत्यस्ति। तत्र वदेद् इत्यत्र तिङ् प्रत्ययेन भावना उच्यते, अतः भावनायाः नाम यज्ञस्य प्राधान्यं, यज्ञे नाम क्रतौ अनृतवचनं निषेद्धव्यम् इति अर्थः सिद्ध्यति। अस्मन्मते अर्थात् वैयाकरणानां मते नानृतं वदेत् इति निषेधः क्रियते। तत्र वदेत् इत्यत्र प्रत्ययः अस्ति, प्रत्ययेन कर्ता उच्यते किल, न तु भावना। तथा सति किं भवति, आख्यातेन कर्तुः उक्तत्वात् श्रुत्या पुरुषार्थता एव स्यात्। कस्य प्राधान्यं तर्हि, तस्य श्रावणप्राधान्यं, श्रवणेन नाम शब्देन कर्ता एव उच्यते इत्यतः कर्तुः प्राधान्यम्। सो कर्तृविषयकं भवति अयं निषेधः, न तु क्रतुविषयकः। क्रतौ अनुतभाषणं वर्धनीयम् इत्यर्थः न सिद्ध्ये। ननु त्वन्मते नानृतम् इति निषेधः क्रत्वर्थः एव न सिद्ध्येत्। आख्यातेन कर्तुः उक्तत्वात् श्रुत्या पुरुषार्थता एव स्यात्। क्रतोः लाभः भवति, कथं भवति, प्रकरणाधिकर्तर्थता, प्रकरणं ज्ञात्वा तत्र कर्तर्थत्वं भवति, तच्च श्रुतिविरोधे बाध्यते। यत्र तु साक्षात् श्रुतस्य प्रकरणस्य च विप्रतिषेधः, तत्र प्रकरणं बाध्यते। साक्षात् यत् श्रूयते तस्यैव स्वीकारः इति मीमांसकानां न्यायः। तथा सति पुरुषार्थता एव भवति निषेधस्य, लेट् इस् द निषेध विल् अप्लै टु द पुरुष, लेट् इस् टु द कर्ता एण्ड् नाट् टु द क्रतु प्राधान्येन। वैयाकरणमते आख्यातस्य कर्तर्थकत्वात् तस्य प्राधान्ये सति नानृतं वदेदिति श्रुतेः कर्तर्थता एव स्यात्, प्रकरणात् भावनायाः लाभः। एतत्तु नेष्यते। मीमांसकमते तु आख्यातस्य भावनार्थकत्वात् भावनाप्राधान्यात् शब्दतः एव कर्तर्थत्वं सिद्ध्यति इति मीमांसकाः वदन्ति। इति चेत् न, सो अयं वादः न तिष्ठति। कुतः, तिङर्थस्तु विशेषणम् इत्यनेन परिहृतत्वात्। अस्माभिः तिङर्थः कर्ता इत्युच्यते, न तु कर्ता प्रधानः इति। अस्माभिरपि व्यापारः प्रधानः इत्येव किल उच्यते। फले प्रधानं व्यापारः, तिङर्थस्तु विशेषणम्, अतः कर्ता विशेषणमेव। न हि गुणभूतः कर्ता, कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुम् अलम्। कर्ता तु भावनां प्रति गुणभूतः। अस्मन्मते तु यद्यपि प्रत्ययार्थः कर्ता, तत्र तथापि सः गौणः, भावनैव प्रधानम्। निषेधं स्वाङ्गत्वेन ग्रहीतुं न अलम्, अतः कर्तर्थतः निषेधः न भवति। भावना तु प्रधानं, तं ग्रहीतुं समर्था इति प्रकरणात् कर्तर्थतैव। प्रकरणादपि कर्तर्थता भवति, भावनायाः एव प्राधान्यात् तत्रापि कर्तर्थता भवति। प्रत्ययस्य कर्तर्थकत्वेऽपि अस्मन्मतेऽपि व्यापारस्यैव प्राधान्यम्। प्रधान अप्रधानयोः प्रधाने कार्यसम्प्रत्ययः इति न्यायः। यत्र एकं प्रधानम् अपरं च अप्रधानम्, कुत्र कार्यं भवति इति चेत् प्रधाने एव भवति। अतः अस्मन्मतेऽपि श्रौतं तत्वर्थत्वं सिद्ध्यत्येव। अथवा अस्तु वा क्रतुयुक्तपुरुषधर्मः, अथवा भावनार्थकत्वं तत्वर्थत्वम् एव भवेदिति नास्ति, क्रतुयुक्तपुरुषस्य धर्मः भवतु। अनृतवचनं कस्य निषिध्यते, क्रतौ निषिध्यते सत्यं, किन्तु क्रतुः अनृतं न भाषते किल। अनृतं के भाषन्ते, पुरुषाः एव भाषन्ते। क्रतुयुक्तपुरुषाः अनृतं न भाषेरन् इत्येव निषेधः, अनुष्ठाने विशेषाभावात्। तत्वर्थत्वमुच्यते अथवा क्रतुयुक्तपुरुषार्थत्वमुच्यते, उभयत्र अनुष्ठाने समानम्। बिकास् वेदर् युर् सेयिङ्ग् द निषेध इस् फार् द क्रतु आर् फार् पर्सन् इन्वाल्व्ड् इन् द क्रतु, द फल इस् द सेम्, बिकास् इट् इस् फैनली अप्लैङ्ग् टु द पुरुष, नाट् टु द क्रतु इट्सेल्फ्। अतः अस्तु वा क्रतुयुक्तपुरुषधर्मः, क्रतुसम्बद्धयाः पुरुषाः अनृतं न वदेयुः इति निषेधः भवतु अनुष्ठाने विशेषाभावात्। गन्धभ्यमानो अनुब्रूयान् मणिदक्षक्रतु इति वाक्योक्त मन्त्रविधिवत् इत्यादि भूषणे प्रपञ्चितम्। So such arguments in more detail are found in the Vaiyakaranam Bhushana. Takimuchyate Amritabhashana Nishethaha Vastutaha Kratu Sambaddheshu Sarveshu Purusheshu Vidhiyate Ityataha Kratu Yukta Purushasyaiva Pradhanyam Astu Doshaha Nasti Imuktam Taihi Kratvarthattvam Nasidhyati Purushartattvam Siddhyati Bhavatu Kratu Yukta Purushartattvam Eva Bhavatu Na Doshaha Itohi Anyatrapi Janjabhyamanaha Iti Mantre तत्र जञ्जभ्यमान इति शानच् प्रत्ययेन कर्ता उच्यते अतः पुरुषधर्मस्य प्राधान्यम् इति मीमांसायामेव निर्णीतम्। अत्रापि तथैव भवतु पुरुषधर्मः इत्येव स्वीकुर्मः कृतयुक्त पुरुषधर्मः इति स्वीक्रियते चेत् दोषाय न भवति। ननु आख्यातस्य भावनायाम् असाधुत्वे एवं किमुक्तम् आख्यातार्थः भावना इति कथनम् दोषाय प्रायश्चित्तम् प्रायश्चित्तं कर्तव्यं भवति अतः तादृशं वक्तुं न शक्यते शक्तिः अपि वक्तुं न शक्यते इत्युक्तम्। ननु आख्यातस्य भावनायाम् असाधुत्वे ततः तद्बोधो न स्यात् एवं तर्हि बोधः न भवेत् किल। किन्तु मीमांसकानां ये तादृशव्युत्पत्तिमन्तः तेषां व्युत्पत्तिमन्तः तेषाम् आख्यातेन भावनायाः बोधः भवति इति चेत् न ननु आख्यातस्य भावनायाम् असाधुत्वे ततः नाम आख्यातात् तद्बोधः भावनायाः बोधः न स्यात् साधुत्वज्ञानस्य शब्दबोधहेतुत्वात् इत्यत आह बोध इति। सो दिस् इस् अगेन् साधुत्वज्ञानं शब्दबोधहेतुः इति अस्मन्मतं न। वि डोण्ट् एक्सेप्ट् इट् वैयाकरणात् बिकास् असाधुशब्दैरपि बोधः भवत्येव इति अस्मन्मतम्। तेषां मते असाधुशब्दाः असाधुशब्देषु शक्तिरेव नास्ति इति तार्किकाः मीमांसकाः वदन्ति। अत एव साधुत्वज्ञानस्य शब्दबोधहेतुत्वादित्यतः बोध इति। असाधुत्वे अपि साधुत्वभ्रमात् बोधः अस्तु नाम अपभ्रंशवत् असाधुत्वं तु स्यादेव। सो बोधः भवति साधुत्वभ्रमात्। ये तु गावी इति पदमेव प्रयुञ्जते गोः इत्यर्थे तेषामपि बोधः भवत्येव अपभ्रंशेष्वपि बोधः अस्ति इति अस्मन्मतम्। असाधुत्वं तु स्यादेव इति भावः। वस्तुतः साधुत्वज्ञानं न हेतुः। सो साधुत्वज्ञानं शब्दबोधे न हेतुः। सो फार् अण्डर्स्टाण्डिङ्ग् ए वर्ड् इट् नीड् नाट् बि ए साधुशब्द। अपशब्दैरपि बोधः भवति। अत एव प्रश्नः यत्र साधुशब्देनापि अर्थबोधः भवति अपशब्दैरपि अर्थबोधः भवति तत्र किं प्रयोक्तव्यम् इति प्रश्नः। यदि अपशब्दैः बोधः एव न भवति तर्हि कोऽपि अपशब्दानां प्रयोगमेव न कुर्वन्ति। इफ् इट् इस् ट्रू दट् अपशब्द केनाट् जनरेट् बोध नोबडी विल् यूस् अन् अपशब्द। दे आर् यूस्ड् बिकास् दे डु नाट् हिण्डर् अण्डर्स्टाण्डिङ्ग्। अपशब्दैरपि बोधः भवत्येव साधुत्वज्ञानं न हेतुः। न हेतुः नाम शब्दबोधे न हेतुः। तद्व्यतिरेकनिर्णयोऽपि न प्रतिबन्धकः। असाधुः तद्व्यतिरेकः नाम असाधुत्वनिर्णयः अपि बोधे न प्रतिबन्धकः। सो डिटर्मिनिङ्ग् वेदर् अ वर्ड् इस् साधु और् असाधु डस् नाट् मेक् अ डिफरेन्स् टु अण्डर्स्टाण्डिङ्ग् द वर्ड्। यु विल् बि एबल् टु अण्डर्स्टाण्ड् बोत् साधु शब्दस् एण्ड् असाधु शब्दस् इति असाधुरनुमानेन इत्यत्र वक्ष्यामः। अग्रे अन्यस्मिन् प्रकरणे पुनः उच्यते साधुत्वं बोधे न प्रतिबन्धकम् अथवा न हेतुः इति कौण्डभट्टेन प्रतिपाद्यते। एतदेव वाक्यप्रियकारेणापि उक्तं ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ते नाम अपभ्रंशाः। प्रत्ययोत्पत्तिहेतवः प्रत्ययं नाम ज्ञानं शब्दबोधम् उत्पादयन्ति इति वदन्ति। भाष्येनापि उच्यते समानायाम् अर्थावगतौ शब्देन चापशब्देन च शास्त्रेण धर्मनियमः। समानायाम् अर्थावगतौ अर्थस्य अवगतिः बोधः समानरूपेण भवति शब्देन च अपशब्देन च। यदि साधुशब्दस्य प्रयोगः क्रियते अथवा असाधुशब्दस्य प्रयोगः क्रियते बोधस्तु भवति। अतः यदि अग्रतिङे भावनार्थे तिङः प्रयोगः क्रियते बोधः भवितुम् अर्हति किन्तु स शब्दस्तु असाधुरेव अतः भावनार्थे तिङः उपयोगः प्रयोगः दोषाय इति सिद्धान्तः रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निर्मिते पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः तत्र केनचित् पृष्टमासीत् किमर्थं धात्वर्थनिर्णयः इत्येव अस्य प्रकरणस्य नाम वस्तुतस्तु तिङर्थाः अपि उच्यन्त एव इति सत्यमुच्यन्त एव अत एव रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निर्मिते भूषणसारे धात्वाख्यातार्थनिर्णयः पूर्णः यथा धात्वर्थनिर्णयः तथा अख्यातार्थस्यापि निर्णयः क्रियते करणीयमेव बिकास् यु केनाट् हाव् देम् इण्डिपेण्डेण्ट्लि यु केनाट् डील् वित् वित् अ धातु विथौट् डीलिङ्ग् वित् अ थिङ्ग् बिकास् वाट् वी टेक् एस् धात्वर्थ इस् कन्सिडर्ड् बै अदर्स् एस् तिङर्थ अतः तेषां खण्डनार्थं तिङर्थः अपि स्पृष्टव्यः धात्वर्थः अपि स्पृष्टव्यः प्राधान्यात् धात्वर्थनिर्णयः इत्युच्यते यतः अस्मन्मते धात्वर्थस्यैव प्राधान्यं न तु आख्यातार्थस्य अतः धात्वर्थप्रकरणम् इत्युच्यते किन्तु धातोः आख्यातस्य उभयोरर्थनिर्णयः कृतः तेन च इदं प्रकरणं समाप्तम् प्रश्नः वेन धातु इस् अटर्ड् इट् केनाट् मीन् अनदर् धातु सो विट् थिङ्ग् नो चेञ्ज् हेपन्स् टु धात्वर्थ नावगतः प्रश्नः
हलो ऐ आम् हियर् केन् यु हियर् मी
यस्
Yeah, this was regarding that Neil had sent you. See, when we say Dhatvartha Prakarana, when you are thinking about Dhatvartha, for example, Pacha can mean Pacha only, whatever thing you attach to it. So when you are thinking of the meaning of Pacha or Gama.
What does it mean? That is the question. What does Pacha mean? See, we are not concerned in this. The Arthika Granthas are not concerned with individual Shabdas. They are concerned with Dhatu as a whole. So what does Pacha mean? Meaning, what
means
not means cooking. I am not talking about the cooking. Does it convey the action of cooking or does it convey the phala, the thing of being cooked? That is the question.
But vyapara also is intended by, when you say pacha, the vyapara is implied in
that. That is what they don't accept. We say it is implied and it is true. That is where the problem is. Mimamsakas don't say, if you say pachil, the action is implied. They say there is no action in the dhatu. It is only when you add the thing that you get the action, which we don't accept. We say pachil has the action already. That is what we have been fighting about.
Okay. Now it's clear. I was pretty confused with your reply. So now it is clear. Just because of they are living in this world, we have to go to the extent of including thing all. Okay.
Yeah.
I got it.
So the thing is because they don't accept that pachi. Whenever we use pachi, whether with thing or with whatever, it implies that action is what we say. They say it's not. Okay. Any other questions? Edi Prashnahana Santi, we'll take a very quick look over what we have studied over in the Dhatva Saptakara. No questions? एकविंशतिः कारिकाः अत्र अधीताः भूषणसारस्य धात्वर्थप्रकरणे परिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते इति प्रथमा कारिका सो भट्टोजिदीक्षितैः वैयाकरणमतोन्मज्जनकारिकाः इत्याख्याः चतुःसप्ततिः कारिकाः निर्मिताः महाभाष्यमूलकाः अत्र फणिभाषितभाष्याब्धेः इति स्पष्टं प्रतिपादयति महाभाष्याधारेण तेन वैयाकरणसिद्धान्तान् प्रतिपादयितुं चतुःसप्ततिः कारिकाः निर्मिताः तासां व्याख्यारूपः ग्रन्थः वैयाकरणभूषणम् इति तस्य भूषणस्य संक्षिप्तं रूपं वैयाकरणभूषणसारः एतद्ग्रन्थद्वयमपि कौण्डभट्टेन अयं कौण्डभट्टः भट्टोजि दीक्षितानां चातुष्पुत्रः तेन निर्मितम् इदं ग्रन्थद्वयम् अत्र व्याख्यानं दृश्यते सो द कारिकाज् आफ् वैयाकरणमतोर्मज्जन कारिका accompanied by the Vyakhyana of the Bhushanasara is what we study. So, tatra prathamam prakaranam, tatra prathama karika asti, phalavyapara yor dhatuhu, ashrayeta tingasmataha, phale pradhanam vyaparaha, tingarthasya visheshanam. A very, very, very important karika because it summarizes the prakarana as a whole. Okay. So, there is nothing in this prakarana beyond this. Everything else is only to support this karika. Asyaha samarthakatvenaiva anyaha karikaha uchyante. Vastataha iyameva siddhanta karika. Phalavyaparayor dhatuhu. Dhatuhu phalavyaparayor vachakaha. Vastate viklipti rupam phalam tadanukulaha vyaparaha ityubhayamapi dhatuna uchyate. Tingaha ashrayanam vachakaha. Tatra phalashabdena viklityadi phalam uchyate. व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधीयमाना क्रिया इति व्यापारस्य लक्षणम् सो एतद्वयमपि धात्वर्थः इति वैयाकरण सिद्धान्तः यावत् सिद्धमसिद्धं वा साध्यत्वेन अभिधीयते आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते क्रिया नाम का सिद्धम् असिद्धं वा अर्थात् एतावता फलम् उत्पन्नं वा भवतु अथवा अनुत्पन्नम् यथा अपाक्षीत् इत्युक्ते पाकफलं निष्पन्नं पक्ष्यति इत्युक्ते न निष्पन्नं साध्यत्वेन अभिधीयते साध्यत्वं सो दट् विच् इस् प्रोड्यूस्ड् इत्यर्थे विच् इस् जनरेटेड् क्रमशः उत्पद्यते इत्यर्थे आश्रितक्रमरूपत्वात् अवयवानां क्रमितोत्पत्तिः यत्र उच्यते सा क्रिया तादृशी क्रिया धातुना उच्यते इति अस्माकं सिद्धान्तः तत्र साध्यत्वं नाम किम् क्रियान्तर आकाङ्क्षा अनुत्थापकता अवच्छेदकत्वं साध्यत्वम् यया क्रियया क्रियान्तरस्य आकाङ्क्षा नोत्पद्यते सा क्रिया साध्यक्रिया इति उच्यते तादृशव्यापारः साध्यरूपेण क्रिया धातुना उच्यते अयञ्च व्यापारः उत्कारत्व अधस्सन्तापनत्व यत्नत्वादि तत्तद्रूपेण वाच्यः कविकोत्पत्तिः स्वक्रिया एका न सर्वत्र क्रियायाम् अवयवाः भवन्ति सो आल् क्रिया इस् अ मिक्स्चर् आफ् कम्पोनेण्ट् क्रिया सर्वेषाम् अवान्तरव्यापाराणां तत्तद्रूपेण वाच्यत्वम् अर्थात् यदा पचति इत्यनेन कदाचित् भूत्कारत्वं वाच्यं भवति यदा भूत् करोति तदापि पचति इति प्रयोगः यदा अधःसन्तापनं करोति तदापि पचति इति प्रयोगः इत्यादि सो एट् एवरी स्टेज् एवरी कॉम्पोनेंट ऑफ दट पर्टिक्युलर एक्शन वी यूज दट वर्ड बट एट दट स्टेज या क्रिया वक्तृबुद्धिस्था तस्याः तस्याः वाच्यत्वं भवति अतएव उच्यते गुणभूतैरवयवैः समूहः क्रमजन्मना बुद्ध्या प्रकल्पित अभेदः क्रियेति व्यपदिश्यते यदा काचित् क्रिया उच्यते क्रिया एका इति प्रतीतिः भवति किन्तु सः अभेदः बुद्ध्या प्रकल्पितः समूहानां क्रमजन्मनां समूहः वस्तुतः क्रमशः उत्पाद्यमानानां बहूनां व्यापाराणां समूहः एव क्रिया गुणभूतैः अवयवैः तत्र अवयवाः गौणाः अप्रधानाः समूहस्यैव प्राधान्यम् सो टेकिङ्ग् दट् होल् टेकिङ्ग् दट् समूह एज़् अ होल् वी हेव् द Vyavahara as one kriya, but it is actually always a samuha. Iti kriyayaha swarupam api atraiva pratipaditam kondabhattena. Ashrayetu tingasmitaha, phalashrayaha karma, vyaparashrayaha karta, tatra tingam shaktihi iti pratijnaya, tingam ashrayavasakatva sadhanam pratipaditam. So, maimamsakanam, nayayakanam cha, matakhandana purasaram, तिङाम् आश्रये शक्तिः इत्येषः अंशः प्रतिपादितः तिङर्थः कर्तृकर्मसङ्ख्याकालाः तत्र कर्तृकर्मणि फलव्यापारयोर्विशेषणे सङ्ख्या कर्तृप्रत्यये कर्तरिविशेषणम् कर्मप्रत्यये कर्मणि विशेषणम् कालस्तु व्यापारे विशेषणम् फलम् व्यापारे विशेषणम् एवञ्च व्यापार मुख्य विशेष्यतः शाब्दबोधः भावनायाः एव प्राधान्यं भवति इत्येतदपि प्रतिपादितम्. सो आल् दिस् वेर् कवर्ड् अण्डर् द भूषणकार टेक्स्ट् आफ् दिस् कारिका. सो अग्रे फलव्यापारयोस्तत्र फले तङ्ग्यक्षिणादयः व्यापारे शप्समाद्यास्तु द्योतयन्त्याश्रयान्वयम्. यत्र समानेन प्रत्ययेन तिङ् प्रत्ययेन कर्ता अपि उच्यते कर्मापि उच्यते, तर्हि कुत्र कर्तुः प्रतीतिः कुत्र कर्मणः प्रतीतिः इति चेत् तङ् यक् क्षिणादयः. तङ् नाम आत्मनेपदप्रत्ययाः, सार्वधातुके यक् इति विहितः यक्, चिन् इत्यादयः प्रत्ययाः कर्मद्योतकाः, अर्थात् फले आश्रयान्वयं द्योतयन्ति, कर्मद्योतका भवन्ति. शप् श्नम् इत्यादयस्तु व्यापारे आश्रयान्वयं द्योतयन्ति, अर्थात् कर्तृद्योतकाः भवन्ति इति सामान्यनियमः अथवा उत्सर्गितः. किन्तु उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात्, तस्माद् यथोचितं ज्ञेयं द्योतकर्त्वं यथागमम्. अयम् औत्सर्गिकः नियमः. क्वचित् यथा कर्मकर्तरि प्रयोगे पच्यते ओदनस्वयमेव इत्यादिषु, अन्यत्र नाम क्रमादमुं नारद इत्यबोधि सः अबोधि इति प्रयोगे यगादिसत्त्वेऽपि पच्यते इत्यत्र यक् अस्ति, अबोधि इत्यत्र चिण् श्रूयते, तथापि कर्तरि एव अन्वयः, एते कर्तृद्योतकाः न तु कर्मद्योतकाः, अतः यथोचितं यथागमं द्योतकत्वं ज्ञेयम्. शास्त्रमनुसृत्य प्रसङ्गमनुसृत्य द्योतकत्वं ज्ञेयम्. सामान्यतः संयगादयः संयक्षिणादयः कर्मद्योतकाः, सक्षमादयः कर्तृद्योतकाः. व्यापारो भावना सैवोत्पादना सैव चक्रिया कृण्यो अकर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते. अत्र मतान्तरस्य निराकरणम्. मीमांसकानां केषाञ्चिन्मते लडाद्यन्ते भावना अवाच्य लट्लकारस्थले व्यापारस्य प्रतीतिरेव न भवति इति केचन मीमांसकाः वदन्ति. नैयायिकाः वदन्ति लाघवात् कृतिरेव वाच्या न व्यापारः, व्यापारस्य पृथग् वाच्यत्वं नास्ति इति नैयायिकाः वदन्ति. ज्ञाकृ इत्यादिषु व्यापारस्यैव वाच्यत्वं फलस्य वाच्यत्वं नास्ति इति वदन्ति. एवं बहुविधाः अभिप्रायभेदाः विद्यन्ते. किन्तु व्यापारः भावना उत्पादना क्रिया इत्यादिभिः सर्वैः सर्वविधोऽपि व्यापारः उच्यते, स सर्वोऽपि वाच्यः धातुवाच्य एव, एवमेव फलमपि धातुवाच्यम्. सर्वत्र व्यापारः फलम् इत्युभयमपि वाच्यं भवति, उभयमपि धातुवाच्यमेव भवति इति विविधोऽपि सिद्धान्तः. किन्तोत्पादनमेव अतः कर्मवत्स्याद्यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तद्दृशेरिव, निर्वर्त्येतरिकार्ये च कर्मवद्भाविष्यते, न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः. कृण्यः फलवाचकत्वे नैयायकानां मते कृधातुः केवलं व्यापारस्य वाचकः न तु फलस्य, किन्तु कृण्यः अपि फलवाचकत्वमस्ति, अत एव क्रियते घटः स्वयमेव इत्यादि कर्मकर्तरिप्रयोगाः उपपद्यन्ते इत्युक्त्वा तत्र कर्मकर्तरिप्रयोगाणां विषये व्यवस्थां वदति. निर्वर्त्ये विकार्ये कर्मवद्भावः इष्यते, प्राप्ये कर्मणि नेष्यते. कर्म त्रिविधं भवति, निर्वर्त्यं दट् विच् इस् प्रोड्यूस्ड् यथा घटं करोति, विकार्यं यथा तण्डुलं पचति, सो यु आर् चेञ्जिङ्ग् और् मोडिफैयिङ्ग् द कर्म, और् प्राप्यं, सो द आल् अदर् कैण्ड्स् आफ् कर्म विच् आर् नीदर् निर्वर्त्य नार् विकार्य, यथा ग्रामं गच्छति, यु आर् नीदर् प्रोड्यूसिङ्ग् द कर्म नार् मोडिफैयिङ्ग् द कर्म, सो दट् इस् काल्ड् प्राप्य. तत्र यत्र निर्वर्त्यं विकार्यं वा कर्म भवति तत्र कर्मवद्भावः भवति, अतः क्रियते घटः स्वयमेव पच्यते ओदन स्वयमेव इत्यादि भवति. न अन्त्ये, प्राप्ये कर्मणि गम्यते ग्रामः स्वयमेव इति न भवति, गच्छति ग्रामः इति प्रयोगः इत्यादि सर्वं दृष्टम्. ओन्ली गिविङ्ग् अ वेरि ब्रीफ् synopsis, so in detail you will study, you have studied in those karikas, so just a quick reminder of what all we went through. So tasmat karotir dhatosya vyakhyanam natvasautinam pakvavan kritavan pakam kinkritam pakvam ityati किं कार्यं पचनीयं चेत् त्यादि दृष्टं हितत्वपि किञ्च क्रियावाचकतां विना धातुत्वमेव न. अतः मीमांसकाः किं वदन्ति, पक्ववान् अथवा पचति इत्यत्र पाकं करोति इति विवरणम्, तत्र पाकम् इति धात्वंशस्य विवरणं, कृ धातुः करोति इति प्रत्ययांशस्य विवरणम्. अतः करोति नाम व्यापारः प्रत्ययार्थः इति वदन्ति, किन्तु करोति हि धातोस्याद्व्याख्यानं न तु किना. किमर्थं, पक्ववान् कृतवान् पाकम् इति कृदन्तस्थलेषु अपि तादृशं विवरणं भवति. यदि भावना आख्यातवाच्या इति अङ्गीक्रियते तर्हि प्रकृतिप्रत्ययार्थन्यायः तदागमन्यायश्च वक्तव्यः मीमांसकैः, तयोः निराकरणम् अत्र कृतम्, किं कृतं पक्वम् इत्यादिषु. एवं भावनायाः धात्वर्थत्वाभावे अनुपपत्तिः, यथा कर्तृ कर्मार्थे करणार्थे कृत्प्रत्ययाः दृश्यन्ते, किं कार्यं पचनीयम् इत्यादि कर्मार्थे प्रत्ययः. यदि क्रिया नास्ति अत्र तु आख्यातं नास्ति, आख्यातः किं प्रत्ययः नास्ति चेत् भावना नास्ति, तथा सति कर्मणि प्रत्ययः कथं भवेत्. एवमेव समासाः कर्तकर्मणो तृतीय समासः कर्तृकरणे कृता बहुलम् इत्येवम्, एवं निजन्तप्रयोगाः अत्र सर्वत्र अनुपपत्तिः भवति यदि भावनायाः धात्वर्थत्वं नाङ्गीक्रियते. किञ्च क्रियावाचकतां विना धातुत्वमेव न. भादिगणपठितत्वे सति क्रियावाचकत्वं धातुत्वम् इति महाभाष्यस्य निर्णयः. केवलेन गणपाठेन न भवति, केवलेन क्रियावाचकत्वेनापि न भवति. सर्वनामाव्ययादीनां यामादीनां प्रसङ्गतः न हि तत् पाठमात्रेण युक्तमित्याकरे स्फुटम्. केवलं भादिगणपठितत्वं धातुत्वम् इति यदि अङ्गीक्रियते तर्हि या वा इत्यादीनामपि धातुत्वं स्यात्. या प्रापणे इति धातुः, या इति सर्वनाम्नः स्त्रीलिङ्गे एकवचनम्, अस्यापि धातुत्वे दोषः. एवं वा गतिगन्धनयोः इत्यस्ति, विकल्पार्थे वा इति अव्ययमस्ति, अव्ययस्व अपि धातुत्वं स्यात्. अतः वादिगणपठितत्वे सति क्रियावाचकत्वमेव धातुत्वम् इति अङ्गीकर्तव्यम्. वादिगणपाठमात्रेण धातुत्वस्य अङ्गीकारे अतिव्याप्तिर्भवति. यदि च तत्र क्रियाशब्दः धात्वर्थत्वं क्रियात्वं चेत् धातुत्वं च क्रियार्थता अन्योन्यसंशयस्पष्टः. तत्र क्रियात्वं नाम फलत्वम् इति व्युत्पत्तिभेदं प्रदर्श्य यदि उच्यते तर्हि अन्योन्यसंशयः भवति. धात्वर्थत्वस्य ज्ञाने क्रियात्वस्य ज्ञानम् अपेक्षितं भवति, क्रियात्वस्य ज्ञाने धातुत्वस्य ज्ञानम् अपेक्षितं भवति इत्यतः अन्योन्यसंशयः भवति. तस्मादस्तु यथाकरम् इत्युक्तम्. अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना, अन्यत्राशेषभावात्तु सा तथा न प्रकाशते. अस्त्यादिषु अपि भावनायाः प्रतीतिः अस्त्येव इति प्रतिपादयति. केवलं केवलस्य फलस्य वाचकत्वम् इति अन्ये वदन्ति, किन्तु तत्रापि भावना अस्त्येव. अशेषभावात्तु नाम एकत्रैव मेलिता इत्यतः न प्रकाशते, किन्तु तत्रापि भावना अस्ति. एवं सति सकर्मकत्व अकर्मकत्वव्यवस्था कथम् इति चेत् फलव्यापारयोः एकनिष्ठतायाम् अकर्मकः, एकमात्राधिकरणकं भवति फलं व्यापारश्च तत्र अकर्मकत्वं. धातुः तयोः धर्मिभेदे सकर्मक उदाहृतः. पुनश्च आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघयादिश्रुतिक्रमः. भावकृदन्तस्थले साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धन, सिद्धभावस्तस्याः स घन्यादिनिबन्धनः. धातुना साध्यक्रियायाः प्रत्ययेन सिद्धक्रियायाः भानं भवति. यत्र तत्र धातुना या भावना उच्यते साध्यक्रिया, तया कारकादीनाम् अन्वयः भवति. मीमांसकानां नैयायिकानां च मते कृदन्तैः सह कारकान्वयः न भवति इति ते वदन्ति, किन्तु तत् न युज्यते. धातुः अस्ति अतः साध्यक्रिया उच्यते, अतः कारकापेक्षा अस्ति इत्यतः कारकान्वयः भवत्येव इत्यत्र प्रमाणानि प्रदर्शितानि. सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमोवतिः धातुसम्बन्धाधिकार निष्पन्नमसमस्तनञ्य तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयं साधुत्वम् अष्टकस्यास्य क्रियैव अवधार्यताम् एतेषाम् अष्टानामपि क्रियान्वये एव साधुत्वम् भवति इत्यत्र सूत्रप्रामाण्यम् प्रदर्शितम्। तत्र एतेषाम् अन्यैः अन्वयः अङ्गीक्रियते, यथा भावनायामेव अन्वयः युक्तः, किन्तु यदि पक्षेऽपि वत्यर्थः कारकञ्च नयादिषु अन्वेऽपि त्यज्यताम् तर्हि चतुर्थ्या स्पृहिकल्पना। नैयायिकानां मते महानसवत् इत्यादि वतिप्रत्ययः पक्षे अन्वेति, एवं भूतले न घटः इत्यत्र कारकाणां नया साक्षादन्वयः उच्यते। एतत् सर्वं न युक्तम्, यतोहि अनुशासनविरुद्धं सूत्रविरोधः भवति। यदि सूत्रविरोधः अङ्गीक्रियते तर्हि चतुर्थ्याः स्पृहिकल्पना, यत्र चतुर्थी विभक्तिः उपयुज्यते तत्र स्पृहयतेः अध्याहारः कर्तव्यः इत्यादि यदुच्यते तत्सर्वं त्यक्तव्यम्। अर्धजरति यस्य अन्याय्यत्वात् इति प्रतिपादितम्। अविग्रहगतादिष्ठा यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता, कृत्वोऽर्थाः त्वात् मुन्वत्स्युः इति चेत् सन्तिः क्वचित् अतिप्रसङ्गो नोद्भाव्यो अभिधानस्य समाश्रयात्। भावना यद्यपि अप्रधाना स्यात्, यद्यपि एकदेशः स्यात्, तथापि तया अन्वयः भवत्येव। सो इवन् दो भावना इस् नाट् प्रधान, इवन् इफ् इट् इस् ओन्ली एन् एकदेश, तथापि अन्वयः भवति, यथा ग्रामं गतः इति, यथा वा कटं कृतपूर्वी इति। तत्र कृत्वोऽर्थाः भवन्ति इति आक्षेपः यः प्रदर्शितः, तत्र इष्टापत्तिः, अतः सकृच्छवणम् इत्यादिषु सुदन्तैरपि कृत्वोऽर्थानां प्रयोगः भवति, अतः सर्वत्रापि भावना विद्यते, तस्यामेव अन्वयः अङ्गीकर्तव्यः। भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वं तदभावेऽपि बोधो नेह निमार्ग्यते। अत्र भावनायां भावना धात्वर्थः इत्येव अङ्गीकर्तव्यम्। यदि आख्यातार्थः इति उच्यते तर्हि तत्र असाधुत्वं स्यात्, तत् प्रयुक्तं प्रायश्चित्तं च कर्तव्यं भवति। बोधे साधुत्वं न प्रतिबन्धकम्, अर्थात् बोधस्तु भवति किन्तु असाधुत्वमपि भवति। व्याकरणशास्त्रं यथा साधुत्वनिर्णायकं तथा शक्तिनिर्णायकमपि, अतः अतिरिक्तशक्तिवादे नाम तिङां भावनायां शक्तिः इति वदन्ति चेत् तत्र असाधुत्वं भवत्येव। असाधुत्वेऽपि बोधः भवितुमर्हति, किन्तु असाधुत्वप्रयुक्तः प्रयुक्ता धर्मः निस्तु भवत्येव। इत्येवं प्रकारेण धात्वर्थप्रकरणं समाप्तं वैयाकरणं भवति। So, anena, I'm Vardhana Samaptaha. So, we are ending the Bhajjata Prakarana course here. We are not taking the other Prakaranas of the Bhujana Sara for now. Okay. Hopefully, someday we can come back to it. For now, this is it. Krishna has indicated email to Arap with Kanto. So, all the best to those who are writing exams. Dhanyavada. श्रीलक्ष्मीरमणन्दौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते। Course on grammar also. This was my first course in a Shastric text, so it was a huge learning experience for me also. So far I had thought only the Prakriya portion, Kaumudi or Tihanta Prakriya, etc. So for me also it was a very good experience, and it was like, so hopefully we will get to do more of these also. Dhanyavada.